इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। भाजपेति दलस्य वरिष्ठ नेता केन्द्रीयः गृहमन्त्री अमित शाहः ह्यः प्रोक्तवान् यत् यावत् शान्तिः न स्थापयिष्यते तावत् पाकिस्तानेन समं न कोऽपि संवादः भविष्यति। सः समाश्वासितवान् यत् विधानसभा निर्वाचनस्य अनन्तरं जम्मू कश्मीर प्रदेशाय राज्यपदं प्रदास्यते। जम्मूनगरे एकं सार्वजनिकोपवेशनं सम्बोधयन् श्रीशाहः स्पष्टीकृतवान् यत् जम्मू कश्मीरे आगामि विधानसभा निर्वाचनम् ऐतिह्यत्वेन अस्ति, यतो हि मोदी प्रशासनद्वारा 70+300 अपाकरणानन्तरं प्रथमं वारं संविधानस्य अन्तर्गतं भवति इदं निर्वाचनम्। ध्यानास्पदम् अस्ति यत् श्रीशाहः निर्वाचन प्रचाराय जम्मू कश्मीरस्य द्विदिवसीय यात्रायां वर्तते। केन्द्रीयः स्वास्थ्यमन्त्री जेपी नड्डा ह्यः पटनानगरे अत्याधुनिकस्य पटना चिकित्सकीय महाविद्यालयस्य चिकित्सालयस्य च निर्माणकार्याणि समीक्षितवान्। अयं हि विश्वस्य द्वितीयस्य बृहत्तमस्य चिकित्सालयस्य रूपेण विकसति। केन्द्रप्रशासनम् अपि अत्याधुनिक सौविध्यैः सह 45 शय्यायुतस्य चिकित्सालयस्य विकासाय बिहारप्रदेशाय साहाय्यं प्रददाति। एतदतिरिच्य श्रीनड्डा दरभंगा मुजफ्फरपुरयोः द्वयोः अत्याधुनिक सौविध्ययुतयोः चिकित्सालयोः अपि उद्घाटनं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् शिक्षकाः राष्ट्राय विशिष्ट सेवां प्रददति, अपि च विकसित भारताय युवनिर्माणस्य कर्तव्यं तेषां हस्ते एव निहितम् अस्ति। शुक्रवासरे नवदिल्ल्यां निजावासे राष्ट्रिय शिक्षक पुरस्कार प्राप्तैः शिक्षकैः सह भाषमाणः श्रीमोदी उक्तवान् यत् विकसित भारताय योग्य नागरिकाणां यूनां च निर्माणाय सर्वेषां सहयोगः अपेक्षितो वर्तते। श्रीमता मोदिना निगदितं यत् शिक्षकाः भारतस्य वैविध्यम् अवलोकयितुं विद्यार्थिनः पर्यटनाय आनयेयुः। प्रधानमन्त्री शिक्षकान् विनिवेदितवान् यत् ते निज छात्रान् देखो अपना देश पीपल्स च्वाइस इत्येतस्यां प्रतियोगितायां भागग्रहणाय प्रेरयन्तु। केन्द्रीयः सूचना प्रसारण मन्त्री अश्विनी वैष्णवः प्रतिपादितवान् यत् टोक्यो नगरे जापान एक्सटर्नल ट्रेड ऑर्गेनाइजेशन इत्येतस्याः संस्थायाः अध्यक्षेण सुसुमु काटाओका इत्यमुना साकं गुणवत्तायुतम् उपवेशनं संजातम्। एकस्मिन् सामाजिक संचार सन्देश पटले श्रीवैष्णवः उक्तवान् यत् उपवेशनमिदं द्विपक्षीय व्यापार निवेशार्थ व्यवस्था पूरक विषयेषु आधृतम् आसीत्। पश्चिम बंगालस्य राज्यपालः सीवी आनन्द बोसः पश्चिम बंगालस्य आपराधिक विधि संशोधकं 24+2000 अपराजिता महिला बाल विधेयकं राष्ट्रपतये द्रौपदी मुर्मू इत्यस्यै प्रेषितवान्, यस्मिन् अनेकाः न्यूनताः सन्ति इति सूच्यते। गतमासस्य नवमे दिनांके कोलकातायाः आरजी कर चिकित्सालये एकस्याः चिकित्सिकायाः बलात्कारस्य हत्यायाः च अनन्तरं राज्य विधानसभया एतत् विधेयकम् अभ्युपगतम्। यदि बलात्कार परिणामत्वेन पीडितायाः मृत्युः भवति तर्हि अपराधिभ्यः मृत्युदण्ड विधानं स्यात् इति विधेयकं प्रतिपादयति। तेलंगाना सर्वकारेण राज्यस्य 33 जनपदाः जलोघप्रभावितेन घोषिताः। जलोघप्रभावितेभ्यः जनपदेभ्यः 3 कोटि रूप्यकाणाम् अपि सहायता राज्यसर्वकारेण समुद्घोषिता। इतः पूर्वं 4 जनपदाः जलोघप्रभावितत्वेन समुद्घोषिताः आसन्। जलोघप्रभावितेषु क्षेत्रेषु आपदुद्धार कार्याणि जायमानानि सन्ति। रेवन्तरेड्डी इत्यमुना हैदराबादे एकं उच्चस्तरीयोपवेशनम् अपि विहितम्। उपवेशनानन्तरं वार्ताहरे सह संवादकाले राज्यस्य मुख्य सचिवेन शान्ता कुमारी इत्यनया प्रोक्तं यत् गतमासस्य 31 दिनांकात् आरभ्य अस्य मासस्य 3 दिनांकं यावत् समंकित वर्षायाः आधारेण इयं घोषणा कृता। तया अग्रे प्रोदीरितं यत् राज्ये वर्षाकारणात् मृतकानां संख्या संवर्ध्य